राम राम। उमा महेश्वर स्तोत्रम्। नमः शिवाभ्याम् नवयौवनाभ्याम् परस्पराश्लिष्टवपुर्धराभ्याम् नगेन्द्रकन्यावृषकेतनाभ्याम् नमो नमः शङ्करपार्वतीभ्याम्। नमः शिवाभ्याम् सरसोत्सवाभ्याम् नमस्कृताभीष्टवरप्रदाभ्याम् नारायणेनार्चितपादुकाभ्याम् नमो नमः शङ्करपार्वतीभ्याम्। नमः शिवाभ्याम् वृषवाहनाभ्याम् विरिञ्चिवेश्विन्द्रसुपूजिताभ्याम् विभूतिपाटीरविलेपनाभ्याम् नमो नमः शङ्करपार्वतीभ्याम्। नमः शिवाभ्याम् जगदीश्वराभ्याम् जगत्पतिभ्याम् जयविग्रहाभ्याम् जम्भारिमुख्यैरभिवन्दिताभ्याम् नमो नमः शङ्करपार्वतीभ्याम्। नमः शिवाभ्याम् परमौषधाभ्याम् पञ्चाक्षरी पञ्जररञ्जिताभ्याम् प्रपञ्चसृष्टिस्थितिसंहृताभ्याम् नमो नमः शङ्करपार्वतीभ्याम्। नमः शिवाभ्यामतिसुन्दराभ्याम् अत्यन्तमासक्तहृदम्बुजाभ्याम् अशेषलोकैकहितङ्कराभ्याम् नमो नमः शङ्करपार्वतीभ्याम्। नमः शिवाभ्याम् कलिनाशनाभ्याम् कङ्कालकल्याणवपुर्धराभ्याम् कैलासशैलस्थितदेवताभ्याम् नमो नमः शङ्करपार्वतीभ्याम्। नमः शिवाभ्यामशुभापहाभ्याम् अशेषलोकैकविशेषिताभ्याम् अकुण्ठिताभ्याम् स्मृतिसंभृताभ्याम् नमो नमः शङ्करपार्वतीभ्याम्। नमः शिवाभ्याम् रथवाहनाभ्याम् रवीन्दुवैश्वानरलोचनाभ्याम् राकाशशाङ्काभमुखाम्भुजाभ्याम् नमो नमः शङ्करपार्वतीभ्याम्। नमः शिवाभ्याम् जटिलन्धराभ्याम् जरामृतिभ्याम् च विवर्जिताभ्याम् जनार्दनाब्जोद्भवपूजिताभ्याम् नमो नमः शङ्करपार्वतीभ्याम्। नमः शिवाभ्याम् विषमेक्षणाभ्याम् बिल्वच्छदा मल्लिकदामभृद्भ्याम् शोभावती शांतवतीश्वराभ्याम् नमो नमः शंकर पार्वतीभ्याम् नमः शिवाभ्याम् पशुपालकाभ्याम् जगत्त्रयी रक्षण बद्धहृद्भ्याम् समस्त देवासुर पूजिताभ्याम् नमो नमः शंकर पार्वतीभ्याम् स्तोत्रं त्रिसंध्यं शिव पार्वतीभ्याम् भक्त्या पठे द्वादशकं नरो यः स सर्वसौभाग्यफलानि भुङ्क्ते शतायुरन्ते शिवलोकमेति। राम राम।